इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधितिवारी। अथ वार्ताः। चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य लोकसभा निर्वाचनस्य मतगणना प्रक्रियायाम् अस्ति। आन्ध्रप्रदेश ओडिशा राज्ययोः विधानसभा निर्वाचनस्य पञ्चविंशतिः विधानसभा क्षेत्राणाम् उपनिर्वाचनानां कृतेऽपि मतगणना जाता। त्रिचत्वारिंशदधिकपञ्चशतं लोकसभासनेषु द्विचत्वारिंशदधिकपञ्चशतं लोकसभासनानां परिणामाः समुद्घोषिताः। एनडीए इत्यनेन दलेन द्विनवत्यधिकद्विशतं आसनानि विजित्य अतिमतं प्राप्तम्। इंडी संयुतिः द्वात्रिंशदधिकद्विशतं आसनानि विजितवत्। प्राप्त सूचनानुसारि भारतीय जनता पार्टीति दलेन एकाकी एव चत्वारिंशदधिकद्विशतं आसनानि गृहीतानि। तेलुगु देशम पार्टीति दलेन षोडश अपि च जदयू दलेन द्वादश आसनानि विजितानि। तत्रैव कांग्रेस दलेन नवनवतिः समाजवादी पार्टीति दलेन सप्तत्रिंशत् तृणमूल कांग्रेस दलेन नवविंशतिः डीएमके दलेन च द्वाविंशतिः आसनानि विजितानि। विजेतृषु नेतृषु वाराणसीतः भाजपेति दलस्य वरिष्ठनेता प्रधानमन्त्री च नरेन्द्रमोदी, गांधीनगरात् केन्द्रीयमन्त्री अमितशाहः, कोटातः ओमबिरलाः, बीकानेरतः अर्जुनराममेघवालः, जोधपुरनगरात् गजेन्द्रसिंहशेखावतः, मध्यप्रदेशस्य गुनास्थलात् ज्योतिरादित्य एन सिंधियाः, उत्तरप्रदेशस्य मैनपुरीतः समाजवादी पार्टीति दलनेत्री डिम्पलयादवः च सम्मिलिताः वर्तन्ते। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् जनैः तृतीयवारमपि एनडीए इत्यस्मै दलाय विश्वासः अभिव्यक्तः। इयम् उपलब्धिः ऐतिहासिकी वर्तते। श्रीमोदी सामाजिकान्तर्जालपटले जनानाम् अकाट्यप्रेम्णे नमनं कृतवान्। असौ आश्वासितवान् यत् इयं संयुतिः जनानाम् आकांक्षाणां पूर्त्यर्थं नैरन्तर्येण कार्यं विधास्यति। भारतीय जनता पार्टीति दलेन दिल्ली, मध्यप्रदेश, छत्तीसगढ़, गुजरात, उत्तराखण्ड, हिमाचल प्रदेश, ओडिशा राज्येषु विजय समधिगत। दिल्ल्याम् अनेन दलेन सम्पूर्णानि सप्तासनानि समधिगतानि। हिमाचल प्रदेशे सकलानि चत्वारि लोकसभासनानि विजितानि। अनेन विजयेन सह दलेन चतुर्दशाधिकद्विसहस्रनवदशाधिकद्विसहस्रतमवर्षयोः ऐतिह्यं पुनरावर्तितम्। उत्तराखण्डराज्ये भाजपेति दलेन लोकसभानिर्वाचनस्य अन्तर्गतं समग्र पञ्चासनानि प्राप्तानि। दलस्य प्रत्याशिना अजयभट्टेन कांग्रेसदलस्य प्रकाशजोशी पराजितः। गुजरातराज्ये भाजपेति दलं षड्विंशतिः आसनेषु पञ्चविंशतिः लोकसभासनानि प्राप्तवत्। कांग्रेसदलं एकम् आसनं विजितवत्। मध्यप्रदेशे भाजपेति दलेन सकलानि नवविंशतिः आसनानि स्वीकृतानि। अपि च ओडिशाराज्ये भाजपेति दलं विंशतिः आसनानि, तत्रैव कांग्रेसदलं एकमेव आसनं स्वीकृतवत्। राजस्थानराज्ये सर्वेषां पञ्चविंशतिः लोकसभासनानां परिणामाः समुद्घोषिताः। भाजपेति दलं चतुर्दश, अपरत्र कांग्रेसदलं अष्टासनं विजितवत्। उत्तरप्रदेशे अशीतिः लोकसभासनानां परिणामाः उद्घोषिताः। समाजवादीपार्टीति दलं सप्तत्रिंशत्, भाजपादलं च त्रयस्त्रिंशत् आसनानि विजितवती। इति वार्ताः।